ॐ श्री परमात्मने नमः। ॐ श्री परमात्मने नमः। अथ पञ्चदशोऽध्यायः। अथ पञ्चदशोऽध्यायः। श्रीभगवानुवाच। श्रीभगवानुवाच। ऊर्ध्वमूलमधःशाखम् ऊर्ध्वमूलमधःशाखम् अश्वत्थं प्राहुरव्ययम् अश्वत्थं प्राहुरव्ययम् छन्दांसि यस्य पर्णानि छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् यस्तं वेद स वेदवित्।